एष रेडियो नेपालः सम्प्रति समाचारः श्रूयन्ताम् प्रवाचक उपेन्द्र दाहालः। राष्ट्रिय सभायाः सदस्य पदानां कृते निर्वाचनाय अद्य आराष्टम् प्रत्याशिनां मनोनयनम् जायमानम् वर्तते। राष्ट्रिय सभायां रिक्तानाम् अष्टादश सदस्यानां कृते निर्वाचनायोगेन आगामिनः माघ मासस्य एकादशाय दिवसाय राष्ट्रिय सभा सदस्यानां निर्वाचनम् निर्धारितम् वर्तते। आयोगेन एतत्पूर्वमेव पौषमासस्य एकोनविंशे दिवसे एव मतदातृनामावली प्रकाशिता वर्तते। सर्वकारेण राज्यकोषेण सञ्चाल्यमानानां निकायानां पदाधिकारिणां पारिश्रमिके सेवासौविध्येषु च एकरूपतायाः निर्धारणेन सह सम्बद्धस्य परामर्श प्रदान कार्यदलस्य प्रतिवेदनं क्रियान्वेतं निर्णीतं वर्तते। मन्त्रिपरिषदः उपवेशस्य निर्णयान् सार्वजनिकर्तुम् ह्य सिंहप्रासादे आयोजिते पत्रकार सम्मेलने सर्वकारस्य प्रवक्ता च सञ्चारमन्त्री खरेलः कार्यदलस्य प्रतिवेदनस्य क्रियान्वयनाय अर्थमन्त्रालयेन आवश्यक व्यवस्थां विधातुम् निर्णीतमस्तीति असूचयत्। सर्वकारेण वर्तमानार्थिक वर्षस्य आयव्यय सार्वजनिकरणस्य समये एव राज्यकोषेण सञ्चाल्यमानानां प्रतिष्ठानानां समितीनां परिषदाम् अन्येषां सार्वजनिक निकायानां पदाधिकारिणां पारिश्रमिके सेवासौविध्येषु च एकरूपताम् आनेतुं निर्णीय तदर्थं प्रदानाय अर्थमन्त्रालयेन परामर्शदातृ कार्यदलं संघटितम् आसीत्। एवमेव उपवेशेन वैद्युताङ्कनयुत नेपालस्य सम्पादनस्य परियोजनायाः कृते विश्वकोषागारात् प्रस्तावितस्य 50 मिलियन मितस्य अमेरिकादेशीय डलर मुद्रायाः सौविध्यपूर्ण ऋणस्य ग्रहणस्य सम्बन्धे सैद्धान्तिकीं सहमतिं प्रदातुं निर्णीतम् वर्तते। गृहमन्त्री ओमप्रकाश आर्यालः राष्ट्रिय सुरक्षया सह सम्बद्धस्य संकट मूल्यांकनस्य सन्दर्भे प्रदेशस्तरादेव सुरक्षा सम्बद्ध सूचनायाः संकलनं विश्लेषणं मूल्यांकनं च कृत्वा शान्ति सुरक्षां विश्वसनीयां सुदृढां च विधातुं प्रदेशानां कर्मचारी नेतृत्वं सुरक्षाधिकारिणश्च निर्दिशति। ह्य गृहमन्त्रालये गृहमन्त्रिणः अर्यालस्य गृहसचिवस्य राजकुमार श्रेष्ठस्य च उपस्थितौ विद्यमान सुरक्षावस्थायाः अपराध नियन्त्रणस्य सीमासुरक्षायाः आगामिनः फाल्गुन मासस्य एकविंशे दिवसे सम्पत्स्यमानस्य प्रतिनिधिसभा सदस्यानां निर्वाचनस्य च विषयेषु प्रदेश प्रमुख सचिवैः प्रदेशानाम् आन्तर विषय विधि मन्त्रालय लयानां सचिवैः सुरक्षा निकायानां प्रमुखैः प्रतिनिधिभिश्च सह विहितस्य विमर्शनस्य क्रमे मन्त्री अर्यालः सम्बद्ध निकायान् एवं निरदिशत्। विधि न्याय संसदीय विषय मन्त्री अनिल कुमार सिम्हा गदति देशे राजनीतिकं वातावरणम् अनुकूलं जायमानं वर्तते। निर्वाचनायोगेन प्रतिनिधिसभा सदस्यानां निर्वाचनाय ह्य आयोजितायां मुख्य प्रशिक्षक प्रशिक्षण कार्यशालायां मन्त्री सिम्हा देशे निर्वाचनस्य वातावरणं निर्मीयमाणमस्ति त्यतः निर्धारित समय एव निर्वाचनं भविष्यतीति दृढतां व्यक्तवान्। मन्त्री सिम्हा जेएनजी युवसन्ततेः याचनाः संविधानस्य संशोधनस्य माध्यमेन एव पूरयिष्यन्ते इति भासमाण संविधान संशोधनस्य एकमात्रं विकल्पः निर्वाचनमस्तीति प्रत्यपादयत्। नेपाली कांग्रेस दलेन आगामिनः माघ मासस्य एकादशे दिवसे सम्पत्स्यमाने राष्ट्रिय सभायाः सदस्यानां निर्वाचने अन्य राजनीतिक दलैः सह समन्वयं कृत्वा निर्वाचने सहभागी भवितुं निर्णीतं वर्तते। कांग्रेस केन्द्रीय कार्य सम्पादन समितेः ह्य उपविष्टेन उपवेशेन एवं निर्णीतमस्तीति दल कार्यालयस्य मुख्य सचिवः कृष्ण प्रसाद पौडेलः असूचयत्। ह्यस्तनोपवेशे महामन्त्री गगन कुमार थापा सहमहामन्त्रिणो फामुल्ला मन्सुर जीवन परियार च धारणां व्यक्तवन्तौ। कांग्रेस केन्द्रीय कार्य सम्पादन समितेः उपवेश अद्य प्रातः 9 पुनः वसतीति मुख्य सचिव पौडेलः असूचयत्। नेकपा एमाले दलेन आगामिनः फाल्गुन मासस्य एकविंशे दिवसे आयोक्ष्यमाणस्य निर्वाचनस्य कृते निर्वाचन परिचालन समितिः संघटिता अस्ति। ललितपुरस्य चासलवर्तिनी दल कार्यालये ह्य उपविष्टेन सचिवालयोपवेशेन उपाध्यक्षस्य रामबहादुर थापाविदस्य संयोजकत्वे षट्सदस्यात्मिका निर्वाचन परिचालन समिति संगठितास्तीति दलस्य उपमहासचिव लेखराज भट्टः सूचयत। उपवेशेन दलाध्यक्षस्य केपी शर्मा ओलिनः नेतृत्वे निर्वाचनस्य कृते घोषणापत्र निर्माण समिति संगठितास्तीति उपमहासचिव भट्ट असूचयत। उपवेशेन निर्वाचनस्य परिचालनाय प्रदेशानां संयोजनाय च विभिन्नाः प्रादेशिक समितयश्च संगठिताः वर्तन्ते। उपवेशेन कोशी प्रदेशस्य संयोजक पदे शेरधन राई, मधेस प्रदेशस्य संयोजक पदे लीलानाथ श्रेष्ठ, बागमती प्रदेशे महेश बस्नेत, उपत्यकायां डाक्टर राजन भट्टराई च संयोजकाः निर्धारिताः वर्तन्ते। एवमेव गण्डकी प्रदेशे खगराज अधिकारी, लुम्बिनी प्रदेशे पद्मा अर्याला, कर्णाली प्रदेशे यामलाल कणेला, सुदूरपश्चिम प्रदेशे गणेश ठकुन्ना च संयोजकाः निर्धारिताः वर्तन्ते। उपवेशेन संगठन विभागस्य प्रमुख पदे भानुभक्त ढकालः प्रचितोऽस्ति। उपवेशे राष्ट्रिय सभायाः निर्वाचनस्य कृते नेपाली कांग्रेस दलेन सह विमृष्टुम् प्रत्याशीनाम् चयनस्य दायित्वम् अध्यक्षाय ओलिने निर्धारयितुम् निर्णीतम् वर्तते। उपवेशेन अध्यक्ष ओली संविधानस्य रक्षायै लोकतान्त्रिक शक्तिभिः परस्परम् समन्वयेन कार्यम् करणीयमिति उपवेशे विचारम् व्यक्तवान्। निर्वाचन केन्द्रीयाचार संहितानुगमन समित्या सूचना प्रविधेः प्रयोगेण आचार संहितायाः क्रियान्वयने वर्धितानाम् समाह्वयानाम् नियन्त्रणाय प्रभावकारी संयन्त्रम् निर्मातव्यम् इत्यत्र बलम् प्रदत्तम् वर्तते। समितेः उपवेशेन सामाजिक सञ्जालानाम् माध्यमेन निर्वाचनस्य समये प्रसार्यमाणानाम् मिथ्या सूचनानाम् देशपूर्णाभिव्यक्तेः भ्रमपूर्ण सूचनानाम् च नियन्त्रणाय विशेषम् संयन्त्रम् निर्माय एव अग्रे वर्धनम् उचितम् भवतीति बलम् दत्तम् वर्तते। समितेः संयोजकस्य निर्वाचनायुक्तस्य च सगुण शमशेर जबरा इत्यस्य संयोजकत्वे उपविष्टे उपवेशे कार्यवाहक प्रमुख निर्वाचनायुक्त रामप्रसाद भण्डारी, निर्वाचनायुक्त डाक्टर जानकी कुमारी तुलाधर च उपस्थिते आस्ताम्। सर्वोच्च न्यायालये अग्निदायन विनष्टानाम् दश सहस्राधिक न्यायिक प्रकरणानाम् न्यायिकाभिलेख विवरणानि पुनः सज्जीकृतानि वर्तन्ते। सर्वोच्च न्यायालये विद्यमानेषु विंशति सहस्रेषु न्यायिकाभिलेख विवरणेषु जेन्जी युवान्दोलनस्य क्रमे विंशति सहस्राणि न्यायिकाभिलेख विवरणानि विनष्टानि आसन्। विगत कतिपय दिवसेभ्य पर्सा जनपदस्य वीरगंज नगरे विधीयमानं विरोध प्रदर्शनम् अतःपरं न कर्तुं सहमति धृतास्ति। पर्सा जनपद प्रशासन कार्यालयस्य संयोजने ह्य उपविष्टेन सर्वदलीयेन सर्वपक्षीयेण च उपवेशेन सहमतिं धृत्वा सोमवासरतः क्रियान्विता निषेधाज्ञा ह्य सायं कालाद् अपाकृतास्ति। इति समाचारः।